श्रीकृष्णेन सुभद्रायै गर्भवत्यै निरूपितम् चक्रव्यूहप्रवेशस्य रहस्यम् चाकुतम् हि तत् अभिमन्युस्थितौ गर्भे दिव्यज्ञानयुतो